अब बाएं हाथ में जल ले लें, दाहिने हाथ में दुर्वा लेकर उस दुर्वा से वो जल अथर्व शीर्ष पठन होने तक गणेश जी पर छिड़कते रहें।
ओम भद्रंगरणे भिषरणे आम देवा भद्रं पश्ये मा शबिर्य जता सिरे रंगे सुष्टवाम सतनो भिर्योजे मदे यदायु ओम स्वस्ति न इंद्रो वृद्ध शरावा स्वस्ति न पूजा विश्वेदा स्वस्ति न स्तारक्षो अरिष्टने स्वस्ति नो बृहस्पतिर्दधातु ओम शांति शांति शांति। ओम नमस्ते गणपतये त्वमेव प्रत्यक्षं तत्त्वमसि त्वमेव केवलं कर्तासि त्वमेव केवलं धर्तासि त्वमेव केवलं हर्तासि त्वमेव सर्वं कलविदं ब्रह्मासि त्वं साक्षादात्मासि नित्यं प्रदं वच्मि सत्यं वच्मि अवत्वं माम् अववक्तारम् अवश्रोतारम् अवधातारम् अवधातारम् अवानूचानमवशिष्यम् अवपश्चात्तात् अवपुरस्तात् अवोत्तरात्तात् अवदक्षिणात्तात् अवचोर्ध्वात्तात् अवाधात्तात् सर्वतो माम् पाहि पाहि समन्तात् त्वं वाङ्मयस्त्वं चिन्मयः त्वमानन्दमयस्त्वं ब्रह्ममयः त्वं सच्चिदानन्दाद्वितीयोऽसि त्वं प्रत्यक्षं ब्रह्मासि त्वं ज्ञानमयो विज्ञानमयोऽसि सर्वं जगदिदं त्वत्तो जायते सर्वं जगदिदं त्वत्तस्तिष्ठति सर्वं जगदिदं त्वयि लयमेष्यति सर्वं जगदिदं त्वयि प्रत्येति त्वं भूमिरापो नलो निलो नभः त्वं चत्वारि वाक्पदानि त्वं गुणत्रयातीतः त्वं देहत्रयातीतः त्वं कालत्रयातीतः त्वं मूलाधारस्थितोऽसि नित्यम् त्वं शक्तित्रयात्मकः त्वां योगिनोऽध्यायन्ति नित्यम् त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वम् इन्द्रस्त्वम् अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमा त्वं ब्रह्मभूर्भुवस्वरो गणादिम् पूर्वमुच्चार्य वर्णादिम् तदनन्तरम् अनुसारपरतरः अर्धेन्द्रसितम् तारेण रुद्रम् एतत्त्वमनुस्वरूपम् ऋकारः पूर्वरूपम् अकारो मध्यमरूपम् अनुस्वारश्चान्त्यरूपम् बिन्दुरुत्तररूपम् नादसन्धानम् संहिता सन्धिः सैषा गणेश विद्या गणक ऋषिः निश्रुत गायत्री छन्दः गणपतिर्देवता ॐ गङ्गणपतये नमः एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ते प्रचोदयात् एकदन्तम् चतुरहस्तम् पाशमङ्कुशधारिणाम् हृदयम् च वरदम् हस्तैर्बिभ्राणम् मूषकध्वजाम् रक्तम् लम्बोदरम् शूर्पकरणम् रक्तवाससम् रक्तगन्धानुलिप्ताङ्गम् रक्तपुष्पैः सुपूजिताम् भक्तानुकम्पिनम् देवम् जगत्कारणमच्युताम् आविर्भूतम् च दृष्ट्यादौ प्रकृतेः पुरुषात्पराम् एवम् ध्यायति यो नित्यम् स योगी योगिनाम् वरः नमो व्रातपतये नमो गणपतये नमः प्रणवपतये नमस्ते अस्तु लम्बोदराय एकदन्ताय विघ्ननाशिने शिवसुताय वरदमूर्तये नमः एतद्गर्वशीर्षं योधीते स ब्रह्म भूयाय गणपते स सर्वविघ्नैर्नबाध्यते स सर्वतः सुखमेधते स पञ्चमहापापात् प्रमुच्यते सायमधीयानो दिवसकृतम् पापम् नाशयति प्रातरधीयानो रात्रिकृतम् पापम् नाशयति सायम् प्रातः प्रयुञ्जानो अपापो भवति सर्वत्राधीयानोपविघ्नो भवति धर्मार्थकाममोक्षम् च विन्दति इदमगर्वशीर्षमशिष्याय न देयम् यो यदि महादासरे स्वापीयान् भवति सहस्रावर्तनात् यय्यम् काममधीते तन्तमनेन साधयेत् अनेन गणपतिमभिषिञ्चति సమాగ్ని భవతి చతుర్భ్యామనుష్మిన్ జపతి స విద్యావాన్ భవతి ఇత్యపరమణ వాక్యం బ్రహ్మాద్యావరణం విద్యాత్ న విభేతి కదాచనేతి యో దూర్వాన్ పురైర్యజతి స వై శ్రవణోపమో భవతి యో లాజైర్యజతి స యశోవాన్ భవతి స మేధావాన్ భవతి యో మోహక సహస్రేణ యజతి స వాంఛిత ఫలమవాప్నోతి యః సాధ్య సమిద్భిర్యజతి స సర్వన్లభతే స సర్వన్లభతే అష్టౌ బ్రాహ్మణాన్ సమ్యగ్రాహీత్వా సూర్యవర్చస్వీ భవతి సూర్యగ్రహే మహానద్యాం ప్రతిమాసన్నిధౌ వా జప్త్వా సిద్ధమంత్రో భవతి మహావిఘ్నాత్రముచ్యతే మహాదోషాత్రముచ్యతే మహాపాపాత్రముచ్యతే స సర్వవిద్భవతి స సర్వవిద్భవతి య ఏవం వేద ఇత్యుపనిషద్. ఓం సహనావవతు సహనో పునక్తు సహ వీర్యం కరవావహై తేజస్వినావధీతమస్తు మా విద్విషావహై. ఓం శాంతి శాంతి శాంతి.